प्रार्थनया आरम्भं कुर्मः. सर्वेषां स्वागतं. वदति वा कोऽपि प्रार्थना? अस्तु, अहं वदामि.
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजं प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये. सरस्वती नमस्तुभ्यं भरते कामरूपिणि, विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा. गुरुब्रह्मा गुरुर्विष्णु गुरुर्देवो महेश्वर गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः. ॐ सहनां भवतु, सहनौ भुनस्तु, सह वीर्यं करवां वहै तेजस्वी नावधीतमस्तु. मा विद्वेषि मा विद्वेषवाहे ॐ शान्ति शान्ति शान्तिः.
अत्र
मा विद्विषावहै रामो राजमणिः सदा विजयते रामं रमेशं भजे. रामेणाभिहता निशाचरचमुः रामाय तस्मै नमः. रामान्यास्ति परायणं परतरं रामस्य दासोऽस्म्यहं. दासोऽस्म्यहं रामे चित्तलयस्सदा भवतु मे भो राम मामुद्धर.
अस्तु, सम्यक्. सो अत्र एव वेदतः आगच्छति, अतः स्वरः अस्ति. ॐ सहना भवतु, सहनौ भुनक्तु, सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै. ॐ शान्ति शान्ति शान्तिः. एवं भवति.
I said as a bear, it's a prose.
आमामां, निश्चयेन.
सोरि,
न न न, चिन्ता मास्तु.
I didn't get that,
yeah. अस्तु अस्तु. एवमेव अत्र सरस्वती, we are used to saying Saraswati namastubhyam. So, Saraswati namastubhyam varade kamarupini vidyarambham karishyami siddhir bhavatume sada. So, atra, this is also okay. Ramo rajamani sada vijayate ramam rameshaṁ bhaje. रामेणाभिहता निशाचरचमु रामाय तस्मै नमः. रामान्नास्ति परायणं परतरं रामस्य दासोऽस्म्यहम्. रामे चित्तलयः सदा भवतु मे भो राम मामुद्धर इति अस्ति. अस्तु अस्तु, प्रथमं वयं कथां पठामः वा? लघुकथा अस्ति. सागरि भगिनी आरम्भं करोति वा?
आं भगिनि. काकस्य उपायः. कश्चन महावृक्षः आसीत्. तत्र एकः काकः पत्न्या सह वसति स्म. तस्य एव वृक्षस्य कोटरे एकः कृष्णसर्पः अपि वसति स्म. यदा काकी प्रसूता भवति तदा कृष्णसर्पः तस्याः शावकान् खादति स्म. एतेन काकः काकी च महत् दुःखम् अनुभवतः स्म.
धन्यवादः भगिनि. शारदा भगिनी अग्रे. शारदा भगिनी न श्रूयते मा? शारदा भगिनी अस्ति वा? नास्ति इति मुनि. अस्तु, श्रीनिवास महोदय.
आं भगिनि. अतः एकदा काकः स्वमित्रस्य शृगालस्य समीपं गत्वा उक्तवान्, ओहो भोः मित्र, सः कृष्णसर्पः कदाचित् मारणीयः, उपायं सूचयतु इति. शृगालः एकम् उपायं सूचितवान्. तत् श्रुत्वा काकः बहु सन्तुष्टः.
सम्यक्. परमेश्वर महोदय.
तदनन्तरं काकः उड्डयनं कुर्वन् नगरम् आगतवान्. तत्र महाराजस्य प्रासादस्य सरोवरे अन्तःपुरस्त्रियः जलक्रीडायां मग्नाः आसन्. तासां वस्त्राणि आभरणानि च सरोवरस्य सोपानेषु स्थापितानि आसन्. काकः तत्र गतवान्, एकं स्वर्णहारं स्वीकृत्य अरण्याभिमुखं प्रस्थितवान्. तत् दृष्ट्वा राजभटाः काकम् अनुसृतवन्तः.
अनुसृतवन्तः. सम्यक्. उमाकृष्णन् भगिनी.
काकः अरण्यम् आगत्य महावृक्षस्य कोटरे तं हारं पातितवान्, स्वयं दूरं गतवान् च. राजभटाः तत्र आगतवन्तः, कोटरे हारं दृष्टवन्तः. तदा तत्र स्थितः कृष्णसर्पः कोपेन बहिः आगतवान्. राजभटाः दण्डप्राहारेण तं मारितवन्तः, हारं च नीतवन्तः.
अस्तु, शारदा भगिनी नास्ति इति मन्ये. तदनन्तरं काकः स्वपत्न्या सह सुखेन जीवितवान्. इदानीं सरलभाषया वक्तुं प्रयत्नं कुर्मः वा? सो अत्र कोटरे इत्युक्ते एतदेव कोटरम् इति. अस्तु, का आरम्भं कर्तुं शक्नोति? कश्चन, अत्र चिच्चन प्रयोगः अस्ति. कः चन इत्युक्ते किं? निश्चयतार्थं नास्ति खलु. वृक्षः कः? वृक्षः कश्चन वृक्षः. कश्चन वृक्षः आसीत्, तत्र एकः काकः पत्न्या सह वसति स्म. तस्य एव वृक्षस्य कोटरे इत्युक्ते यस्य वृक्षे काकः वसति तस्य एव वृक्षस्य कोटरे एकः कृष्णसर्पः अपि वसति स्म. यदा काकी प्रसूता भवति, प्रसूता भवति इत्युक्ते लघु काकशिशवः आगच्छति, तदा कृष्णसर्पः तस्याः शावकान् इत्युक्ते लघु काकान् खादति स्म. एतेन काकः काकी च महत् दुःखम् इति नपुंसकलिङ्गपदं, दुःखम् अनुभवतः स्म. अत्र द्विवचनमस्ति, अनुभवति, अनुभवतः, अनुभवन्ति इति. कोऽपि वक्तुं प्रयत्नं करोति वा सरलभाषया? सागरी भगिनी आरम्भं करोति वा? अन्य कोऽपि अस्ति वा नूतनछात्रः?
अहमस्मि भगिनि, सविता.
सविता भगिनी. अस्तु, सविता भगिनी प्रयत्नं करोति वा?
आं करोति भगिनि. एकः महावृक्षस्य अस्ति,
एकः महावृक्षः अस्ति, सम्यक्.
वृक्षे एकः काकः आसीत्, काकः काकः दम्पती आसीत्.
सम्यक्, काकदम्पतिः आसीत्.
सा तस्य वृक्ष इस् इट् करेक्ट् भगिनि?
तस्य वृक्षस्य
वृक्षस्य एकः कृष्णसर्पस्य कृष्णसर्पः अपि आसीत्.
सम्यक्.
यदा कदा काकी प्रसूता स कृष्णसर्पस्य काकस्य शावकं खादति. काकदम्पती महद् दुःखम् अनुभवतः.
सम्यक्, काकदम्पती मनः सम्यक्. अस्तु अस्तु, अग्रे सागरि भगिनी वक्तुम्. अतः एकदा काकः स्वमित्रस्य, इत्युक्ते तस्य मित्र
भगिनी, प्रयत्नं करोमि.
करोतु भगिनि.
काकस्य मित्रः शृगालः अस्ति.
सो अत्र मित्रम् एव, मित्रं
मित्रं. काकः मित्रं समीपे गत्वा पृच्छति, मित्रस्य समीपे गत्वा पृष्टवान्, मित्र मम सहायं करोतु, एकः कृष्णसर्पः अस्ति, तद् सः कृष्णसर्पः मारणीयम् इति उपायं ददातु.
सम्यक्,
काकः उक्तवान्. शृगालः चिन्तित्वा एक उपायं दत्तवान्. काकः श्रुत्वा बहु सन्तोषम् अनुभूतवान्.
सम्यक्, बहु अस्तु, अग्रे शारदा भगिनी अस्ति वा? नास्ति इति मन्ये. अस्तु, श्रीनिवास महोदय.
आं भगिनि, भगिनि वाट् इस् उड्डयन्?
उड्डयन मीन्स् हि फ्लू अवे, सो वि केन् जस्ट् से गच्छति आर् सो अत्र कुर्वन् इति. न वदतु वदतु.
उपायम् अनुसारं काकः नगरं गतवान्. नगरे महाराजस्य प्रासादस्य नगरे महाराजस्य परिवारः स्त्रियां जलक्रीडायां स्थानं स्थानं गतवान्.
अस्तु,
टु लाङ्ग् अ सेण्टेन्स् इति सन्ति.
सो यु केन् जस्ट् स्प्लिट् इट् महोदय. तत्र महाराजस्य प्रासादः आसीत्, प्रासादस्य सरोवरे, प्रासादः मीन्स् पेलेस्, पेलेस् अण्ड् देन् सरोवरः इस् लैक् अ पाण्ड्,
लेक्
पाण्ड्, या, सम्थिङ्ग्, या.
तत्र महाराजस्य प्रासादः अस्ति, प्रासादे सरोवरः अस्ति.
सम्यक्.
तत् सरोवरे स्त्रियां जल स्त्रियाः जलक्रीडायाम् आसन्.
सम्यक्, पर्याप्तं. सम्यक् सम्यक्.
तासां वस्त्राणि जलक्रीडां स्त्रियां तस्य वस्त्राणि आपरणानि च सरोवरस्य बहिः स्थापितवन्तः.
सम्यक्.
काकः तत्
आभरणेषु एकं. Yeah, when you said in Tamil, I translated it, that's all.
तत् आपरणेषु एकम् अपहरित्वा वनं प्रति आगच्छति.
उत्तमं. वनं प्रति आगच्छति. उत्तमं.
वनं प्रति आगच्छति. एतम् ऐ थिङ्क् यु आर् डन् ऐ थिङ्क् रैट्
नो न
एतत् दृष्ट्वा राजभटाः सैनिकाः काकम् अनुसृतवन्तः.
सम्यक्, काकम् अनुसृतवन्तः. अस्तु, अग्रे परमेश्वर महोदय.
काकः आरण्यम् आगत्तो बहुविक्षे काकः बहुविक्षस्य क्वाटरे हारं पतितवान्. वयं दूरं गतवान् च. राजसेनकाः तत्र तत् क्वाटरे हारं दृष्टवन्तः. तत्र स्थितः कृष्णपरस्परं कोपेन बहिः आगतवान्. राजबडाः दण्डप्रहारेण कृष्णसर्पेण कृष्णसर्पे हारितवन्तः. हारं च नीतवन्तः.
सम्यक्. अत्र काकः वनम् आगतवान्. आगत्य महावृक्षस्य अधः एकः कोटरः अस्ति. कोटरे तं हारं पातितवान्. सो अत्र वि काल् दिस् निच् प्रयोगः. पतति पातयति, पठति पाठयति, चलति चालयति. सो टु मेक् थिङ्ग्स् हेपन्. सो हि पुट् इट् देर्. He made it fall, iti arte.
Shrigala, what is this? Shrigala, that's a fox?
Shrigala is a fox. This is the Shrigala.
Okay, fox, right? Oh, fox is supposed to be a cunning animal, yes. All right.
राजभटाः तत्र आगतवन्तः. कोटरे हारं दृष्टवन्तः. तदा तस्मिन् समये कृष्णसर्पः कोपेन बहिः आगतवान्. राजभटाः दण्डेन मारितवन्तः. हारं च नीतवन्तः. तदनन्तरं काकः स्वपत्न्या सह सुखेन जीवितवान्. अस्तु, इदानीं वयम्
अस्माकं
ब्लाक् स्नेक् उत्तमकथा खलु, लघुकथा सम्यक् अस्ति. अस्तु इदानीं
भगिनि भवती
प्रश्नं वा, अस्तु
प्रश्नं पृच्छतु, वयम् उत्तरं
अस्तु.
भगिनी अपि श्रूयते वा?
आं भगिनि, आं भगिनि, इदानीं इदानीम् इदानीं श्रूयते भगिनि. अस्तु अस्तु, काकः पत्न्या सह कुत्र वसति स्म?
महावृक्षे.
महावृक्षे, कस्मिन् महावृक्षे वसति स्म?
कश्चन महावृक्षे.
कश्चन महावृक्षे, कश्चन महावृक्षे.
दट् आल्सो विल् टेक् सप्तम भगिनि.
आम्, कस्मिंश्चित् महावृक्षे. सम्यक्, कस्मिंश्चित् महावृक्षे काकः पत्न्या सह वसति स्म? कृष्णसर्पः कुत्र वसति स्म? वृक्षस्य कोटरे, तस्मिन् एव वृक्षे अथवा तस्य एव वृक्षस्य कोटरे वसति स्म. अस्तु, कृष्णसर्पः किं खादति स्म? काकस्य शावकान् खादति स्म. अस्तु, अतः काकः किं कृतवान्, किम् अनुभूतवान्, किं कृतवान्?
काकः महत् दुःखम् अनुभूतवान्. एक उपायनं चिन्तितवान्. सः शृगालस्य समीपं गत्वा उपायनं एक उपायनं ददातु इति उक्तवान्.
उत्तमम्, उपायनं ददातु इति उक्तवान्. अस्तु, शृगालः उपायनं दत्तवान् वा?
शृगालः उपायनं दत्तवान्.
उपायम्, उपायनं न उपायं, सम्यक्, उपायं दत्तवान्. अस्तु, उपायनम् इत्युक्ते गिफ्ट् खलु, गिफ्ट्. अस्तु, ऐ आल्सो स्टिल् सेम्. अस्तु, अग्रे काकः किं कृतवान्?
काकः नगरं
नगरं गतवान्. नगरे किम् आसीत्?
प्रासादः आसीत्. प्रासादस्य
सरोवरे,
एक प्रासादस्य सरोवरम् आसीत्. तत्र अन्तःपुरस्त्रियः स्नानं कृतवत्यः स्म.
कृतवन्ती स्म अथवा कृतवत्यः.
अन्तःपुरस्त्रियः
स्त्रियः
स्नानं कृतवत्यः.
नो, वेन् वि यूस् कृतवत्यः, वि कन्नाट्
यूस् कृतवत्यः, वि कन्नाट्
कुर्वन्ती स्म,
कुर्वन्ती स्म
अथवा कृतवत्यः.
काकः अत्र तासां वस्त्राणि, आभरणानि दृष्ट्वा एकं स्वर्णहारं स्वीकृत्य तस्य वृक्षम् अनुश्रुतवान्
वृक्षं प्रति आगतवान्
भगिनि केन् वि से उद्देय आगतवान् फ्लू बैक् हौ डु वि से वि फ्लू बैक् दट्स् ओके राइट्
उड्डयनं कुर्वन् आगतवान्
उड्डयनं ओके उद्दीय दट्स् रॉन्ग्
उड्डीय इस् आल्सो करेक्ट् उड्डीय आगतवान् बट् वेन् वि से उड्डीय दट् मीन्स् अनन्तरं लैक् आफ्टर् फ्लैयिङ्ग् उड्डयनं कुर्वन् मीन्स् वैल् फ्लैयिङ्ग् हि केम् लैक् शत्रु प्रति उड्डयनं कुर्वन् आगतवान् अनन्तरं राजसैनिकाः किं कृतवन्तः
काकस्य अनुगतवन्तः
काकम् अनुगतवन्तः
काकम् अनुगतवन्तः
तत्र त्वान्तम् अस्ति चेत् द्वितीया विभक्ति अतः काकम् अस्तु अग्रे अग्रे किम् अभवत् काकः कुत्र पातितवान् हारं
महावृक्षस्य कोटरे
पातितवान् कोटरे पातितवान् अनन्तरं काकः किं कृतवान् सर्पः किं कृतवान्
काकः स्वयं दूरं गतवान् सर्पः
कोपेन बहिः
होटरस्य बहिः
कोटरात् बहिः कोटरात् बहिः आगतवान् कोटरात् बहिः आगतवान् राजभटाः किं कृतवन्तः
राजभटाः दण्डप्रहारेण
सर्पं ताडयति सर्पं ताडितवन्तः
भगिनि दण्डप्रहारं व्हाट डस् दट् मीन् दण्ड स्टिक्
hitting with the stick. दण्डप्रहारेण मारितवन्तः
लाठी मारण
लाठि किं नीतवन्तः राजभटाः नीतवन्तः अनन्तरं काकः किं कृतवान्
सुखेन जीवितवान्
सुखेन जीवितवान् स्वपत्न्या सह आर् वी केन् से तस्य पत्न्या सह सुखेन जीवितवान् अस्तु
Bhagini, when we say taadayati, we have to use saptami is what you taught us. So saptami will come where kaakam taadayati.
Kaakam taadayati. Supposing it is kaakasya shira.
Only the when part of the body.
Only the part, correct. Samyak. Okay. काकं शिरसि ताडितवान् लैक् दट् उत्तमप्रश्नः भगिनि वेरि गुड्
धन्यवादः
अस्तु वयं वि आर् वेरि क्लोस् टु कम्प्लीटिङ्ग् द बुक् विभक्तिवल्लरी पुनरेकवारं रूपाणि पश्यामः सप्तमी विभक्ति प्रथमा विभक्ति रामः अकारान्तपुल्लिङ्गः रामः ज्ञानम् इति अस्ति चेत् सप्तमी विभक्ति ज्ञाने ज्ञानयोः ज्ञानेषु ज्ञाने ए इति भवति या योः सर्वत्र योः ओः इति भवति षु अपि सर्वत्र षु 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 केवलम् आकारान्त स्त्रीलिङ्गपदं रमा इति प्रथमा विभक्तिरूपं भवति रमा लता इति अस्ति चेत् एव सु रमासु परन्तु योः ओः इति भवति रमा यां स्त्रीलिङ्गे सर्वत्र याम् इति भवति रमायां रमयोः रमासु हरि हर् औ औकारः भवति औ हरौ रात्रिः रात्रौ स्त्रियां स्त्रीलिङ्गे पुल्लिङ्गवत् औ भवति स्त्रीलिङ्गवत् यां भवति रमा यां मत् यां इति भवति गौरी आल्सो अत्र आल्सो न गौरी अपि स्त्रीलिङ्गे एव अस्ति खलु ईकारान्त दीर्घ ईकारान्त पुल्लिङ्गे नास्ति अतः विकल्पः नास्ति विकल्पः इत्युक्ते आप्शन्स् नो आप्शन्स् गौर् यां रमा यां अत्रापि विकल्पः नास्ति गौर् यां धेनुः गुरुः गुरौ गुर्वोः गुरुषु अत्र इकार अस्ति चेत् यकारः भवति इकारस्य गुणः य अतः हरौ हरि हरौ हर् योः गुरु उकार अस्ति चेत् व भवति य स्थाने व हर्योः अत्र गुर्वोः परन्तु बहुवचने मूलरूपम् अपि च शु हरि शु गुरु शु एवमेव मति शु गौरी शु धेनु शु अत्रापि पुल्लिङ्गवत् धेनौ स्त्रीलिङ्गवत् धेन् वाम् वा वकारः भवति उ अस्ति चेत् व इ अस्ति चेत् य एवमेव दीर्घ ऊ अस्ति वधूः वधूः अस्ति चेत् विकल्प साधारणतया विकल्पः नास्ति दे धेन् वाम् अथवा धेनो ऐ मीन् धेनौ इति अस्ति परन्तु वधू अस्ति चेत् एकमेव रूपं वद् वाम् वद्वां वद्वोः वधूषु ऋकारान्तपदे भिन्नरूपाणि नास्ति पितरि पित्रोः पितृषु मातरि मात्रोः मातृषु एवमेव अस्ति नपुंसकलिङ्गे नकारः भवति वारिणि मधुनि इति वारिणोः वारिषु मधुषु वारिणोः नकारः भवति अस्तु सर्वनामपदं तस्मिन् तयोः तेषु तस्मिन् कस्मिन् कयोः केषु सर्वस्मिन् सर्वयोः सर्वेषु स्त्रीलिङ्गे तस्यां याम् एव लक्षणं स्त्रीलिङ्गस्य लक्षणं यां तस्यां तयोः तासु अत्रापि तासु भवति रमासु इव तासु कस्यां कयोः कासु सर्वस्यां सर्वयोः सर्वासु भवत् शब्दः अस्ति चेत् भवति पितरि इव भवति भवतोः भवत् सु अत्रापि भवत् मूलरूपं भवत् सु भवत् सु शु नास्ति सु भवति स्त्रीलिङ्गे भवती भवत् शब्दः भवती इति भवति महती इव महती गौर्यां गौर्योः गौरीषु भवत्यां भवत्योः भवतीषु इति रूपम् अहम् इति प्रथमाविभक्तिरूपम् अस्मत् शब्दः मयि मयि विश्वासं करोतु कृपया अहं सम्यक् करोमि मयि आवयोः अस्मासु मयि आवयोः अस्मासु प्रश्नः अस्ति वा अस्तु वयम् एतावत्पर्यन्तं कृतवन्तः खलु योधः शत्रुः कण्ठे प्रहृतवान्। योधः शत्रुं कण्ठे प्रहृतवान्। अस्तु, कुत्र कुत्र वयं सप्तमीविभक्तिरूपं उपयोगं कर्तुं शक्नुमः एकवारं पश्यामः। एकमस्ति आधारः, वस्तु आधारः, साक्षात् वस्तु। गृहे कुत्र अस्ति? गृहे अस्ति। कुत्र इति प्रश्नस्य आधारः कुत्र अस्ति? गृहे, सरोवरे, वृक्षे, कोटरे इति। वाटिका अस्ति चेत् यां भवति, लता यां, पिपीलिका यां इति। ई अस्ति चेत् अपि यामेव, विपण्यां। विपणिः इति इकारान्तपदम्, अतः विपण्याम् एव भवति। वीथी, वीत्यां। प्रदर्शिनी, प्रदर्शिन्याम् इति भवति। विपणिः इति अस्ति, अतः अन्यरूपं किं भवति? विपणौ खलु, विपणौ, हौ, हरौ, विपणौ, परन्तु साधारणतया विपण्यां, विपण्याम् इति अस्ति। अस्तु, अन्यत् एकम् अस्ति विशेष, विशेषम् अस्ति चेत् विषयरूप आधारः इत्युक्ते अन्यविषयः अस्ति। संस्कृतम् इति एकः विषयः, तत् साधारणतया वस्तु नास्ति इत्युक्ते वयं स्प्रष्टुं न शक्नुमः, द्रष्टुं न शक्नुमः। एतादृशविषयः अस्ति चेत् तस्य नाम अस्ति विषयरूप आधारः। आसक्तिः इति अन्यविषयः, प्रीतिः एतादृशविषयः, आसक्तिः, प्रीतिः, करुणा, भक्तिः एतादृशपदानि सन्ति चेत् कस्मिन् आधारः अस्ति, कस्मिन् आधारः, अनाधारः अस्ति इति अस्ति चेत् अत्र विषयरूप आधारः इति वदामः वयं, विषयरूप आधारः। तत्र अपि सप्तमीविभक्तिरूपं भवति। संस्कृते जनाः प्रीतिं प्रदर्शयति, प्रीतिः, अभिरुचिः, कृपा, आसक्तिः एतादृशविषयः अस्ति। अत्रापि अन्यविषयः अस्ति। एतादृश आङ्ग्लभाषायाम् इन्टेञ्जिबल्स् इति वदामः, इन्टेञ्जिबल्स्, टेञ्जिबल्स्, इन्टेञ्जिबल्स्। सो अत्र स्प्रष्टुं न शक्नुमः, प्रीति इति स्प्रष्टुं द्रष्टुं न शक्नुमः। तथा एव संस्कृतम् इति एकः वस्तु एव, परन्तु स्प्रष्टुं द्रष्टुं न शक्नुमः। एतादृशपदम् अस्ति चेत् विषयरूप आधारः इति नूतननाम अस्ति। एवमेव स्निह्यति, विश्वसिति एतादृशपदम्, अत्रापि विषयरूप आधारः इव खलु, तस्मिन् स्निह्यति। उदाहरणं, माता पुत्रे विशेषतः स्निह्यति, पुत्रे विशेषतः स्नेहं प्रदर्शयति। अत्रापि वक्तुं शक्यते स्नेहं प्रदर्शयति, स्नेहं, स्नेहं प्रदर्शयति, तादृश अर्थे एव अस्ति स्निह्यति, विश्वसिति। सो अत्र प्रीतिम् इति पदस्य स्थाने वयं स्नेहम् इति अपि वक्तुं शक्नुमः, स्नेहं, विश्वासम्। एवमेव सो अस्तु, स्निह्यति, विश्वसिति, विश्वसितवान्, विश्वस्य, स्नेह, स्निह्यति, विश्वसन्तु, एतादृशं परिवर्तनं भवति तत्र विश्वसितु स्निह्यन्ति एतादृशपदम् अस्तु अत्र अन्य अन्यत् एकं रूपं रूपमस्ति प्रहरणं ताडनं ग्रहणम् एतादृशपदानि सन्ति चेत् अन्यत् एकः प्रयोगः प्रयोगः इन्द्रजित् माया सीतां केशेषु गृहीतवान् सीताम् इति द्वितीयविभक्ति परन्तु कुत्र गृहीतवान् केशेषु वृक्षस्थलं प्र सारि वक्षस्थलं प्रहृतवान् अहं प्रहृतवान् कुत्र प्रहृतवान् वक्षस्थलं प्रहृतवान् आरक्षकः चोरं गृहीतवान् गृहीतवान् इति अस्ति चेत् द्वितीया विभक्ति परन्तु कुत्र गृहीतवान् कण्ठे सप्तमी विभक्तिरूपं भवति अस्तु एतावत् पर्यन्तं वयं कृतवन्तः अस्तु अत्र केवलं प्रहेलिका एव प्रहेलिका इत्युक्ते ऋड् एतं पदबन्धं सप्तमविभक्तिरूपं पूरयत् सचित्राः इत्युक्ते चित्रैः सहिता अत्र कथाः इति अस्ति सो अत्र चित्रैः सहिताः बालकथाः अस्यां पत्रिकायां भवन्ति इत्युक्ते एका पत्रिका अस्ति तस्यां पत्रिकायां बहवः बालकथाः सन्ति बालकथा वदतु महोदय चन्दामामा सम्यक् चन्दामामा इति अस्ति रूपम् अस्तु मिलित्वा एव कुर्मः पुष्पाणि कुत्र विकसन्ति
लतायां
याम् इति एकमेव यां लता याम् अस्तु धनम् अत्र स्थापयन्ति जनाः धनस्यूते इति भवति स्यूते सम्यक् धनस्यूते अस्तु सो अत्रापि अस्यां पत्रिकायां भवति चन्द्रमामा एव अस्तु अमूल्यानि लेखनानि अत्र सङ्गृह्णामि सञ्चिकायां अत्र सञ्चिका एवमेव लेखनीयं खलु सञ्चिका अस्तु चिन्ता सञ्चिका इत्युक्ते फोल्डर् वृक्षाः कदा पल्लविताः भवन्ति पल्लविताः मीन्स् ब्लूमिङ्ग्
चैत्रमासे
मासे गुरुराघवेन्द्रः कुत्र वसति
मन्त्रालये
अत्रापि एवं भवति खलु मन्त्रालये मन्त्रालये सः रात्रौ न खादति तर्हि कदा दिने नागरिकाः अत्र वासं कुर्वन्ति नगरे दशावतारकथाः कुत्र सन्ति पुराणेषु राजा कुत्र विश्वसिति इत्युक्ते कुत्र विश्वासं प्रदर्शयति सचिव अत्र एकवचनं सचिवे बहुवचनं सचिवेषु अत्र मूल्याङ्कः लभ्यते मूल्याङ्कः इत्युक्ते स्टाम्प् पत्रालये प्राणाः एतेषु सन्ति
what does it mean bhagini in
life pranaah means life
praneshu
vartaah kaasu mudritaah bhavanti vartaah news पत्रिकासु शकुन्तलायाः प्रीतिः कस्मिन् दुष्यन्ते इति दुष्यन्ते अस्ति अस्तु अग्रे
This exercise was nice, Bhagini.
Oh, awesome. Narayanah kaschana saralajanah. Saralajanah ittikte saha uttamajanah iti. Saha vivideshu janeshu vividhan bhavan pradarshayati. भावपात्राणि प्रथमादिक्रमेण सङ्ख्यया निर्दिष्टानि प्रथम आदि मीन्स् स्टार्टिङ्ग् फ्रम् वन् प्रथमादिक्रमेण सङ्ख्यया निर्दिष्टानि सन्ति तेषां सप्तम्यन्तरूपैः अधस्तनवाक्यानि पूरयत् सः एषः एत सो अत्र वयं सर्वनामपदम् उपयुज्य सर्वनामपदस्य सप्तमीविभक्तिरूपं लेखनीयम् अस्तु प्रथम उदाहरणम् अस्ति नारायणः तस्मिन् सः अस्ति चेत् तस्मिन् आदरं प्रदर्शयति अस्तु सागरी भगिनी एषः अस्ति चेत् सप्तमीविभक्तिरूपम् सः
एतस्मिन्
बहु सुलभः सः तस्मिन् एषः एतस्मिन् आसक्तिं प्रदर्शयति सम्यक् अग्रे शारदा भगिनी
नारायणः तस्याम् आसक्तिः प्रदर्शयति
तस्याम्
आसक्तिं
प्रदर्शयति सो अत्र भिन्नभिन्नभावम् अस्ति विनयं, तृतीयमस्ति विनयम्। अग्रे वयं भावं पश्यामः, भावस्य अर्थं पश्यामः, इदानीं केवलं रूपमेव पश्यामः। अस्तु, श्रीनिवासमहोदय, एषा
एतस्याम्,
एतस्याम्। अस्तु, परमेश्वर महोदय, भवान्,
भवत्याम्,
भवति,
भवति,
भवति इति भवति। अस्तु, सम्यक्। उमाकृष्णन् भगिनी,
भवति, भवत्याम्,
आम्, भवत्याम्, भवत्याम्। अस्तु, सविता भगिनी,
अहं भगिनि,
अहम्,
अहम्,
अहम् इति अस्ति चेत् मयि, मयि,
मयि आवयोः,
मयि आवयोः अस्मासु, मयि, मयि। ते इति अस्ति चेत् अन्य कोऽपि अस्ति वा? उषा भगिनि, ते,
what do I have to do?
सप्तमी विभक्तिरूपं, तस्मिन्, तयोः,
तस्मिन्,
तस्मिन्, तयोः,
तासु,
तेषु, तेषु। सो द तासु कम्स् ओन्लि फार् स्त्रीलिङ्ग, आकारान्त स्त्रीलिङ्ग। तस्यां, तयोः, तासु, तस्य, तयो, तस्मिन्, तयोः, तेषु, तेषु,
एतेषु,
एतेषु, एते इस् एतेषु। अन्य कोऽपि अस्ति वा? मालती भगिनी वक्तुम् इच्छति वा? मालती भगिनी,
म्यूट्, म्यूट्, ऐ मीन् म्यूट्,
यु आर् इन् म्यूट्। अस्तु, अस्तु, अस्तु। सागरी भगिनी, भवन्तः, भवान् इति भवति, भवति, भवत्योः,
भवत्सु,
भवतोः, भवत्सु, भवति, भवतोः, भवत्सु, सम्यक्, भवत्सु। अस्तु, ताः, शारदा भगिनी,
तासु,
तासु, सम्यक्। श्रीनिवासमहोदय, भवत्यः,
भवत्यः,
भवत्यः इस् द बहुवचनं आफ् भवति, भवत्यां, भवत्योः, मूलरूपं शु,
भवतीषु,
भवतीषु, सम्यक्,
भवतीषु,
भवतीषु, बहुवचनं बहु सुलभं, भवतीषु, भवतीषु एवं भवति। अग्रे परमेश्वर महोदय, एताः, एतासु, स्त्रीलिङ्गे एव सु भवति,
एतासु,
एतासु, एतासु। अस्तु, अग्रे उमाकृष्णन् भगिनि, वयं, मयि आवयोः,
मयि आवयोः अस्मासु,
अस्मासु, अस्मासु। अस्तु, इदानीम् अर्थं जानीमः। प्रीति इत्युक्ते लैक्, इच्छा इति। आदरः,
रेस्पेक्ट्,
रेस्पेक्ट्, रेस्पेक्ट्। आसक्तिः,
इण्ट्रेस्ट्,
इण्ट्रेस्ट्। सो सो आसक्तिः इस् आल्सो इच्छा, बट् किञ्चित् भिन्न इच्छा। विनयम्,
हम्बल्,
ह्युमिलिटि, हम्बल्, ह्युमिलिटि, विनयं। वात्सल्यम्, अफेक्षन्, अफेक्षन्। मैत्री, मैत्री, फ्रेण्ड्शिप् सम्यक्
फ्रेण्ड्शिप्
फ्रेण्ड्शिप्
श्रद्धां
श्रद्धा
डिवोशन्
स्नेहं
फ्रेण्ड्शिप्
फ्रेण्ड्शिप् मैत्रीव मैत्रीव आम् आम् डिफ्रेण्ट् काण्टेक्स्ट् खलु मैत्रीम् इस् फ्रेण्ड्शिप् स्नेहम् इस् लिटिल् बिट् आफ् अफेक्षन् कैण्ड् आफ् अफेक्षन् फ्रेण्ड्शिप् वित् अफेक्षन् नम्रता
हम्बल् ह्यूमिलिटि
ह्यूमिलिटि सेम् लैक् विनयम् prema
love
love love prema gauravam
dignity
honor
honor honor dignity something vidheyata
prayerful
vidheyata is when you are saying aham भवत्याः दासी अस्मि दासी लैक् दास्यं
सर्विट्यूड्
सर्विट्यूड् लैक् सब्मिसिव् लैक् भक्ति
डिवोशन्
डिवोशन् विशेषाधरं स्पेशल् आदरः विशेष आदरः सम्यक्
स्पेशल् रेस्पेक्ट्
स्पेशल् रेस्पेक्ट् यस् अस्तु अग्रे सो अत्र इकार उकार ऋकार पदानि हरिः अस्ति चेत् हरौ हर्योः हरिषु गुरौ गुर्वोः गुरुषु वकारः भवति अत्र स्त्रीलिङ्गे मत्ति
मत्यौ
मत्यौ ऐम् सारि मतौ मत्यां मतौ मत्यां हरौ इव मतौ स्त्रीलिङ्गे याम् अस्ति अतः मत् याम् एवमेव गुरौ अस्ति अतः धेनौ परन्तु स्त्रीलिङ्गे याम् अस्ति ऊ अत्र धेनु उकारः अस्ति अतः वां भवति यां न भवति धेनौ धेन्वां परन्तु मतिषु धेनुषु नपुंसकलिङ्गे नकारः भवति दद् नः कुत्र अस्ति अस्तु दद् नः बहुवचनम् अस्ति एकनिमिषं न भवति षष्टिविभक्ति अस्तु सो अत्र वारिणि इकारः भवति भवत् शब्दे इकारः अस्ति खलु भवति इति तादृशम् अत्र अत्रापि अस्ति वारिणि मधुनि मधुनोः मधुषु वारिषु अत्र दद्नि इति अस्ति अतः एव अहं मधुनि इति अहं लिखितवती अत्र मधुनि दद्नि किञ्चित् भिन्नरूपम् अस्ति वारिणि दद्नि अहं चिन्तयामि किञ्चित् विशेषपदम् इति दद्नि दधिष अस्तु वयं रूपाणि पश्यामः प्रवृत्तिः प्रवृत्तौ प्रवृत्तिषु अस्तु नाभि सागरि भगिनी नाभि पुल्लिङ्गे
नाभौ
नाभौ नाभोः नाभ्योः एव क्षम्यताम् नाभ्योः नाभिषु नाभौ नाभ्योः नाभिषु अस्तु शारदा भगिनी
भीरुः भीरौ भीर्वोः भीरुषु
भीर्वोः भीर्वोः भीरुषु उकार अस्ति अतः ओकारः भवति भीर्वोः भीरुषु अस्तु श्रीनिवासमहोदय रज्जुः स्त्रीलिङ्गे
रज्जुः मिश्रतु धेनुः रज्वां रज्वोः रज्जुषु
रज्जुषु सम्यक् रज्वाम् अथवा रज्जौ अपि अस्ति विकल्पं विकल्पेन अस्तु परमेश्वर महोदय सन्ततिः
सन्ततिः सन्ततौ सन्ततिषु
अस्तु सन्ततौ सन्ततिषु सन्ततिः अत्र अन्यरूपमपि अस्ति खलु सन्तत्याम् इति सन्ततिः इति अस्ति सन्ततौ पुल्लिङ्ग इव परन्तु स्त्रीलिङ्ग इव सन्तत्याम् इति अपि भवति सन्तत्यां सन्ततिषु सन्ततयोः सन्ततिषु सन्ततौ सन्तत्यां सन्ततिषु उमाकृष्णन् भगिनी माता
माता मातरि मातरो मातरोः मातृषु
मात्रोः अत्र यकारः न आगच्छति अत्र एव यकारः न मात्रोः एव
मात्रोः मातृषु
मात्रोः मातृषु श्रोता सविता भगिनी
श्रोता पुल्लिङ्गे श्रोतौ श्रोतेषु
अत्रापि मात्र इव
पितरि पितृषु
पितरि मातरि इव मातरि मात्रोः मातृषु इति अस्ति खलु तथा एव श्रोतरि श्रोतरि श्रोत्रोः श्रोतृषु श्रोतरि श्रोत्रोः श्रोतृषु श्रोतरि श्रोत्रोः श्रोतृषु श्रोतरि श्रोत्रोः श्रोतृषु अस्तु अस्तु अग्रे उषा भगिनी
कार्यकर्तरि
सम्यक्
कार्यकर्तरि कार्यकर्त्रोः कार्यकर्तृषु
कार्यकर्तृषु अस्तु अन्य कोऽपि नास्ति इति मन्ये सागरि भगिनि अत्र भगिनी एकवचने सर्वत्र औ एव
लैक् गुरौ इट् बि रैट्
गुरौ गुणानुषु गुणानौ गुणान् वोः गुणानुषु सम्यक् शारदा भगिनी वायुः अणुः इत्युक्ते वन् अण्ड् पार्टिकल् खलु अणु गुण अणुः
आटम्
आटम् संथिङ्ग् लैक् महोदय अस्तु अग्रे शारदा भगिनी
वायुः वायौ वायवोः वायुषु
वायौ वायवोः वायुषु सम्यक् श्रीनिवास महोदय न श्रूयते महोदय मध्ये अस्ति
वा
आम्
संस्कृत्यां संस्कृतौ संस्कृतिषु
संस्कृतिषु द्विवचनं
संस्कृतौ
संस्कृतयोः तावदेव योः उ अस्ति चेत् वोः अस्तु आवरणे दत्तानां शब्दानां सप्तम्यन्तेन रूपेण एकवचनं रिक्तस्थलं पूरयत् अत्र दे हेव् नाट् गिवन् पुल्लिङ्गं वा स्त्रीलिङ्गं वा अस्तु उदाहरणं भक्तस्य साधुः साधौ विश्वासः आसीत् साधुः वयं जानीमः पुल्लिङ्गः इति अतः एकमेव रूपं विकल्पः नास्ति भक्तस्य साधौ विश्वासः आसीत् सो दिस् इस् अ वेरि इण्ट्रेस्टिङ्ग् यूसेज् भक्तस्य विश्वासः दट् मीन्स् द भक्तः हेस् विश्वासः इन् साधु इति अर्थे अथवा भक्तः साधौ विश्वसिति भक्तः साधौ विश्वासं प्रदर्शयति ओके वी केन् एक्स्प्लेन् दिस् इन् फोर् डिफ्रेण्ट् वेस् आर् थ्री डिफ्रेण्ट् भक्तस्य विश्वासः साधौ अस्ति भक्तः साधौ विश्वसिति भक्तः साधौ विश्वासं प्रदर्शयति अस्तु जस्ट् ज्ञानार्थम् उक्तवती ओके तावदेव अस्तु परमेश्वर महोदय लक्ष्मणस्य सो अत्र भ्राता इति अस्ति खलु
लक्ष्मणस्य लक्ष्मणस्य भ्रातरि
सम्यक् लक्ष्मणस्य सो ऐ विल् रैट् इट् दिस् वे अहम् एवं लिखामि लक्ष्मणस्य आदरः लक्ष्मणस्य अतीव आदरः भ्रातरि आसीत् लक्ष्मणस्य भ्रातरी अतीव आदरः आसीत्। सम्यक्, भ्रातरी त्रीणि रूपाणि कानि? भ्रातरी,
भ्रातरौ,
भ्रातरी, भ्रात्रोः,
भ्रात्रोः, भ्रातृषु,
भ्रातृषु। सम्यक्, भ्रातरी, भ्रात्रोः, भ्रातृषु। सम्यक्। उमाकृष्ण भगिनि,
सबर्याः दाशरथीः अतीव आदरः आसीत्। शबर्याः दाशरथ्योः
एकवचनम् औ भवति, सर्वत्र औ, एक्सेप्ट् फार् अकारान्त पुल्लिङ्ग एण्ड् अकारान्त नपुंसकलिङ्गे ए भवति, अन्य सर्वत्र औकारः एव भवति। एक्सेप्ट् फार् ऋकारान्त इट् बिकम्स् ए इ।
वाट् वुड् बि दट् भगिनि?
दाशरथिः इस् अ पुल्लिङ्गपद, लैक् हरि,
हरि, या। सो दाशरथिष्यो,
हरि विल् बिकम् हरौ, खलु? हरि इस् हरौ,
सो दाशरथौ,
दाशरथौ।
दाशरथौ
दीवादर आसीत्। पूर्णवाक्यं भवतु भगिनि। शबर्यां
दाशरथौ अतीव आदरः आसीत्।
सम्यक्, सम्यक्। सविता भगिनि,
श्रवणकुमारस्य पितरि अतीव आदरः आसीत्।
अतीव आदरः आसीत् अस्तु। एकनिमिषं भगिनि, उमाकृष्णन् भगिनी त्रीणि रूपाणि वदति वा कृपया? दाशरथौ,
दाशरथी, दाशरथौ, दाशरथीषु।
द्विवचनं दाशरथ्योः। अस्तु, सम्यक्। सविता भगिनी, त्रीणि रूपाणि? पितरि,
पितरि, पित्रौ, पितृषु।
पितरि, पित्रोः, पितृषु।
श्रवणकुमारस्य पितरि अतीव आदरः आसीत्।
सम्यक्। उषा, उषा भगिनी,
भीष्मस्य मातरि अतीव आदरः आसीत्।
त्रीणि रूपाणि? मातरि,
मातरि, मात्रोः, मातृषु,
मातृषु। सम्यक्। अन्य कोऽपि अस्ति वा? नास्ति। अस्तु, सागरी भगिनि,
एकलव्यस्य गुरौ अतीव आदरः आसीत्। गुरौ गुर्वोः, गुरुषु,
गुरुषु। शारदा भगिनि,
जनकस्य दुहितरी अतीव प्रीतिः आसीत्।
सम्यक्, दुहितरी, सम्यक्,
दुहितरी, दुहित्रोः, दुहितृषु।
सम्यक्, सम्यक्। अस्तु, श्रीनिवास महोदय,
विवेकानन्दस्य भारतीयसंस्कृतौ अतीव प्रीतिः आसीत्। भारतीयसंस्कृतौ, भारतीय संस्कृत्योः, भारतीय संस्कृतिषु,
संस्कृतिषु। संस्कृति इति स्त्रीलिङ्गपदम्, अतः द्वितीयविकल्पः
स्त्रीलिङ्गम्। यां भारतीय
संस्कृत्यां। सम्यक्। अस्तु, परमेश्वर महोदय, धेनु अपि स्त्रीलिङ्ग एव।
दिलीपस्य धेनौ अतीतप्रीति प्रीतिः आसीत्।
विकल्पः, अनदर् आप्शन्,
दिलीपस्य अतीवप्रीतिः धेनौ आसीत्।
धेनौ इति एकरूपं, द्वितीयरूपं
धेनुः धेनौ धेनुषु
धेन्वाम् अपि अस्ति धेनौ धेन्वा धेन्वोः धेन्वां धेनौ धेन्वोः धेनुषु अस्तु सम्यक् अस्तु अग्रे आवरणे दत्तानां शब्दानां सप्तमी बहुवचनन्तरूपेण रिक्तस्थानानि पूरयत् अस्तु हिन्दुषु ऐक्यं भवेत् भवेत् इति वदामः चेत् तस्य रूपस्य नाम अस्ति विधिलिङ्ग् इति अन्यलकारः लकारः इति वदामः चेत् क्रियापदरूपाणि लट् लकार इत्युक्ते वर्तमानकाल लिङ्ग् लकार भूतकाल लृट् लकार भविष्यत्काल एवमेव अस्ति सो अत्र अन्यत् एकम् अस्ति लिङ्ग् लकार लिङ्ग् लकार इति वदामः चेत् अत्र भवेत् इति अर्थद्वयम् अस्ति एकमस्ति एवमेव भवतु इति लैक् यु शुड् यु आट् टु इति अर्थे हिन्दुषु ऐक्यं भवेत् इत्युक्ते अवश्यं भवन्तु इति निश्चयेन एवमेव भवतु इति आज्ञा इव लैक् एन् आर्डर् लैक् विधि वि काल् इट् विधि लिङ्ग् So this is like law. We should. Iti. Hindushu aikyam bhave. It should. Iti. Anyateka artaha asti. We call it sambhavana. I'm not sure about the spelling. Sambhavana. Sambhavana iti te like a probability prayah so there are two different artha here the artha is law definitely hindushu aikyam bhavet iti hindushu hindu janeshu aikyam bhavet निश्चयेन भवेत् भवितव्यम् सो अत्र भवेत् इति वदामः चेत् कर्तरिप्रयोगे भवति भवितव्यं भवनीयम् इति अस्ति चेत् निश्चयेन कर्मणि प्रयोगः भवेत् अस्तु उमाकृष्णन् भगिनी
मुग्धता भवेत्
शिशुषु मुग्धता भवेत् मुग्धता इत्युक्ते मुग्धता इत्युक्ते इन्नसेन्स् इन्नसेन्स् देर् शुड् बि इन्नसेन्स् इन् चिल्ड्रन् लैक् दट् डोण्ट् एक्स्पोस् देम् टु नान्सेन्स् सविता भगिनि
मुनिषु इन्द्रियान् निग्रह भवेत्
इन्द्रियनिग्रहः इति त्रीणि रूपाणि वदतु पूर्वमपि उमाकृष्णन् भगिनि त्रीणि रूपाणि वदतु
शिशुषु शिशोः
शिशौ शिशोः शिशुषु सम्यक् सविता भगिनी मुनि
मुनोः मुन्योः मुनिषु
मुनौ मुन्योः मुनिषु सम्यक् उषा भगिनी भ्रातृ
भ्रातरी भ्रात्रोः भ्रातृषु
अस्तु वाक्यं वदतु
भ्रातृषु सहमतः भवेत्
भ्रातृः सहमतः भवेत् सहमतः मतः इत्युक्ते ओपिनियन् और् द थाट् सः मतः
थिङ्क् अलैक्
दे थिङ्क् अलैक् दे शुड् थिङ्क् अलैक् नो चेत् हार्मनी न भवति खलु ऐक्यं न भवति अस्तु सागरी भगिनी
आं भगिनि नेत्रषु दूरदृष्टिः भवेत् नेत्री नेत्रोः नेत्रषु
सम्यक् नेत्रषु दूरदृष्टिः भवेत् लैक् दूरदृष्टिः इत्युक्ते विजन् लैट् विजन् शारदा भगिनि समस्या वा वदतु स्नायुशक्तिः भवेत् स्नायु इत्युक्ते स्नायु इत्युक्ते मसल् वदतु रूपाणि ऐ केनाट् हियर् यु भगिनि ऐ एम् सारी क्षम्यतां श्रीनिवासमहोदय
स्नायुषु शक्तिः भवेत्
स्नायुषु शक्तिः भवेत् सम्यक्
स्नायौ 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 स्नायोः स्नायुषु
सो अत्र उ अस्ति अतः यो स्थाने
ओके स्नावोः
स्नायुवोः
स्नायुषु
स्नायुषु सम्यक् शारदा भगिनी आगच्छति वा पुनः अस्तु परमेश्वर महोदय
पुल्लिङ्गं वा
उत्तमप्रश्नः पुल्लिङ्ग इति अहं चिन्तयामि पुल्लिङ्ग कोशे दृष्ट्वा वक्तुं शक्नुमः परमेश्वर महोदय
दधिषु रुचिः भवेत्
दधिषु रुचिः भवेत् सम्यक् दधि इति नपुंसकलिङ्गपद अतः त्रीणि रूपाणि कथं भवति अत्र पुस्तके एव अस्ति खलु तत् पश्यामः अस्तु द्विवचनं कथं भवति दध्नि दध्नोः
दध्नोः
दधि दध्नोः दधिषु दधिषु अस्तु उमाकृष्णन् भगिनी अग्रे
विपणिषु स्वच्छता भवेत्
विपणिषु स्वच्छता भवेत् सम्यक्
विपणोः विपण्योः विपणिषु
विपणौ
विपणौ
विपण्योः विपणिषु अस्तु सविता भगिनी
यात्रोः यात्रिषु
यात्रि इति भवति
यात्रि यात्र्योः यात्रिषु स्नेहः भवेत्
सो अत्र यात्रियोः न भवति यात्रोः एव यात्रि यात्रोः
यात्रिषु
यातृषु यातृषु स्नेहः भवेत् इति. अस्तु, प्रश्नः अस्ति वा सप्तमीविभक्त्यां? नो चेत् अन्तिमं पश्यामः. सम्बोधनं सम्बोधनं वयं साक्षात् वदामः. रामः, गोविन्दः, गौरी, लता इत्यादीनां सर्वेषां शब्दानां सम्बोधनरूपाणि एकवचने प्रथमाविभक्ति भिन्नानि भवन्ति. इत्युक्ते रामः इति राम भवति, द्विवचने बहुवचने समानमेव. द्विवचने समानमेव भवति, रामः रामौ रामाः खलु प्रथमाविभक्तिरूपम्. परन्तु सम्बोधने राम रामौ रामाः, मित्रं मित्रे मित्राणि, परन्तु मित्र मित्रे मित्राणि. स्त्रीलिङ्गे भिन्नरूपं रमा रमे रमाः, परन्तु रमे रमाः. अत्र अपि एकवचने भिन्नरूपं, सर्वत्र एकवचने भिन्नरूपं, द्विवचने बहुवचने समानरूपं भवति, सर्वत्र तथा एव भवति. सम्बोधनसमये हे, भोः, अये, अयि, रे इत्यादीनि अव्ययानि अपि कदाचित् उपयुज्यते. उदाहरणार्थं हे राम, भोः राम, अये, अयि, रे अपि उपयोगं कर्तुं शक्नुमः वयम्. रामः प्रथमाविभक्ति, राम
समानरूपं वा? हे, भोः,
समान अर्थः एव.
किमपि प्रयोगं कुर्मः वा?
आम् आम्. सो अत्र वयं कथं जानीमः सम्बोधन इति? विसर्गः नास्ति अत्र, मकारः नास्ति अत्र, सीता आकारः नास्ति, सीते भवति. अपि च चिह्नम् अस्ति, आश्चर्य चिह्नमपि अस्ति, अथवा अल्पविरामचिह्नं कमा इति वदामः खलु, अल्पविरामचिह्नम् अपि भवति, अथवा हे इति अस्ति. एतादृश चिह्नानि सन्ति चेत् सम्बोधना इति वयं वक्तुं शक्नुमः. अत्र सुलभतया वयं ज्ञातुं शक्नुमः खलु, राम मित्र इति. परन्तु रामौ इति अस्ति चेत् तत्र एतादृश चिह्नानि उपयोगानि भवन्ति. रामौ इति वदामः चेत् आश्चर्यचिह्नम् अथवा अल्पविरामः अथवा हे अरे इति अस्ति चेत् सुलभाय भवति. अस्तु, इकारः अस्ति चेत् ए भवति, हरे. उकारः ओ भवति. अत्र हरिः पुल्लिङ्ग, हरे. सुमतिः स्त्रीलिङ्ग, अत्रापि सुमते सुमते भवति. दीर्घ ईकारः अस्ति चेत् ह्रस्वं भवति, परन्तु दीर्घ नास्ति खलु, ह्रस्व अस्ति, अतः ए भवति. गुरुः गुरो, धेनुः धेनो, ओकारः भवति. उकारस्य गुणः ओ, इकारस्य गुणः ए. अग्रे वयं सन्धिं पठामः, तत्र एतादृश अर्थम् आगच्छति. इकारस्य गुणः अर्थः कः इति अग्रे पश्यामः. इकारस्य गुणः ए, उकारस्य गुणः ओ. पिता अस्ति चेत् पितृ, मूलरूपं पितृ, परन्तु पितः पितः भवति. कर्ता कर्तः, माता मातः, अत्र भिन्नं नास्ति, पुल्लिङ्गस्त्रीलिङ्गभेदः नास्ति. अस्तु, समयः अभवत्, अग्रे पश्यामः. इदानीं विरमाम शान्तिमन्त्रम् उक्त्वा. ॐ सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्. ॐ शान्ति शान्ति शान्तिः. हरिः ओम् श्रीगुरुभ्यो नमः. हरिः ओम्. सो अग्रिमवर्गे हाफ् एन् अवर् अर्लियर् अस्तु वा? 30 मिनिट्स् अर्लियर् इत्युक्ते Indian time 5:30, for US time half hour earlier for us, for America, for India time half hour later.
Okay,
half hour later for India, half hour early for US. Okay, dhanyavaad.
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 Thank you very much.
Thank you.